अचिन्त्यामिताकार शक्ति स्वरूपा प्रतिव्यक्तधिष्ठान सत्त्वैकमूर्ति प्रतिव्यक्तधिष्ठान सत्त्वैकमूर्ति गुणातीत निर्द्वन्द्व बोधैकगम्या त्वमेका परब्रह्म रूपेण सिद्धा अनैकान्तिकत्वात् अलक्ष्यागमत्वात् अशेषाकरत्वात् प्रपञ्चालसत्वात् अनारम्भकत्वात् त्वमेका परब्रह्मरूपेण सिद्धा असाधारणत्वात् असम्बन्धकत्वात् अभिन्नाश्रयत्वात् अनाकारकत्वात् अभिन्नाश्रयत्वात् अनाकारकत्वात् अविद्यात्मकत्वात् अनाद्यन्तकत्वात् अविद्यात्मकत्वात् अनाद्यन्तकत्वात् त्वमेका परब्रह्मरूपेण सिद्धा
त्वमेका परब्रह्मरूपेण सिद्धा त्वमेका परब्रह्मरूपेण सिद्धा
बाला न च त्वं वयस्का न वृद्धा न च स्त्री न षण्ढ पुमानैव च त्वं न च त्वं सुरो नासुरो न नरो वा त्वमेका परब्रह्मरूपेण सिद्धा
त्वमेका
मध्ये यथा भ्रामयित्वा मृदं चक्रमध्ये कुलालो विधत्ते शरावे घटं च महामोहयन्त्रेषु भूतान्यशेषान् तथा मानुषांस्त्वं सृजस्यादि सर्गे त्वमेका परब्रह्मरूपेण सिद्धा
त्वमेका
Hey. तपो नैव कुर्वन् वपुः सीदयामि व्रजन्नापि तीर्थं पदे खञ्जयामि पठन्नापि वेदाञ्चलिं यापयामि पठन्नापि वेदाञ्चलिं यापयामि वदं कृत्वयं मङ्गलं साधयामि त्वमेका परब्रह्मरूपेण सिद्धा इदं शिवाय कथितं सुधाधाराख्यं स्तवम् एतस्य सतताभ्यासात् सिद्धिः कर्तरे स्थिता एतत् स्तोत्रं च कवचं पद्यं त्रितयमप्यदः पठनीयं प्रयत्नेन नैमित्तिक समर्पणे सुधाधारा कालिस्तोत्रम्।